अग्निम् होता अरम् मन्येतास्वन्तम् वसुम् सोनुम् सहसो जातवेदसम् विप्रन्न जातवेदसम् य ऊर्ध्वजा अस्वद्भरो देवो देवाच्या कृपा घृतस्य बिभ्राष्टिपनुपष्टिशोचिषा जुह्वानस्य सर्पिषाः यजिष्ठन्त्वा यजमानाहुवे भज्येष्ठमङ्गिरसाम् विप्रमन्मभिर्विप्रेभिः शुक्रमन्मभिः परिज्मानमिबद्याम् होतारञ्जर्षडीनाम् शोचिष्केशम् वृषणञ्जमिमा विषः प्रावन्तु ज्योतये विषाः स हि पुरोचिदोजसा विरुक्मतादीद्या नो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः वीळुचिद्यस्य समृतौ श्रुभद्वने वयत्स्थिरम् निःसहमाणो यमते नायते धन्वासः नायते दृढाचिदस्मा अनुदुर्यथा विदेते ज्येष्ठाभिरणिभर्ताष्ट्यवसेऽग्नजे दाष्ट्यवसे प्रयः पुरोडिगाहते तक्षद्वने एव शोचिषा स्थिराचिदन्ना निर्णात्योजसा निःस्थिराणि चिदोजसा तमस्य वृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्राजुषे दिवातरात् आदस्याजुर्ग्रभणवद्वेलुशर्मनसूनवे भक्तमभक्तमभोऽव्यन्तो अजरा अग्नजोऽव्यन्तो अजराः स हि शर्धो न मारुतम् तु विश्वनिरप्नस्वते शोर्वरा स्विष्टनिरार्तना स्विष्टनेः आदद्धव्यान्या ददर्यज्ञस्य केतुरर्हणा अधस्मास्य हर्षतो हृषीवतो विश्वे दुषन्तपन्थान्नरः शुभेन पन्था द्विता यदीम् केस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः अग्निरेषे वसो नाम् शुचिर्याधर्णिरेषाम् प्रियाम् अभिधेङ्ग्रवनिषेष्टमेधिर आवनिषेष्टमेधिरः विश्वासान्त्वा विशाम्पतिम् हवामहे सर्वासाम् समानन्दम् पतिम् भुजे सत्यगर्वाहसम् भुजे अतिथिम् मानुषाणाम् पितुर्नजस्या सया अमे च विश्वे अमृता स आवयो हव्या देवेष्वावयाः त्वमग्ने सहसा सहन्तमः शुष्मिन्तमाजाजसे देवता तजे रजर्न देवता तजे शुष्मिन्तमोहिते मदोद्युम्निन्तम उत क्रतोः अधस्मादे परिचरञ्जरः सृष्टेवानो नाजर प्रभो महे सहसा सहस्वत उषर्बुधे पक्षेनाग्नजे स्तोमो बभोत्वग्नजे प्रतिजदीम् हविष्मान् विश्वा सुक्षा सुजोगुवे अग्रे रेभो न जरतरुषूणाम् जोर्निर्होतरुषूणाम् स नो नेदिष्ठम् ददृशा न आभराग्ने देवेभिः सजनाः सुचेतुना महोराजः सुचेतुना महिषविष्ठनस्कृधि सञ्चक्षे भुजे अस्यै महि स्तोतृभ्यो मघवन्सुवीर्यम् मथे रुग्रो न शवसा